धन्यवादः भगिनि.
अद्य नूतनपाठम् आरम्भं कुर्मः. दृश्यते इति मन्ये. एकनिमिषम्. सर्वे किञ्चित् पुनःस्मरणं कृतवन्तः इति मन्ये. विरामकाले नूतनपाठम् आरम्भं कुर्मः. उपसर्गाः अनिता भगिनी पठतु रक्तवर्णस्य.
नमस्ते भगिनि. संशयात्मा
पठतु भगिनि.
संशयात्मा विनश्यति. पश्यत् उच्चैः पठत च. भीष्मः गच्छति. कुन्ती आगच्छति. कृष्णः धावति. कालयवनः अनुधावति. आ प्लस् गच्छति अनुगच्छ आगच्छति. अनु प्लस् धावति अनुधावति.
अनुयोगः धावति. योगः इति प्लस् योग अनुयोगः धावति. आयोगः गच्छति. रक्तवर्णस्य शब्दाः सर्वे उपसर्गः. आयोगः गच्छति अनुयोगः धावति. अनुधावति आगच्छति.
अग्रिममपि पठामि वा?
पठतु भगिनि.
भीष्मः गङ्गा दृष्ट्वा आगच्छति. गङ्गां दृष्ट्वा आगच्छति. एकलव्यः द्रोणाचार्यं प्रणमति.
आगच्छति तत्र कथमस्ति विभाजनम्?
आ प्लस् गच्छति.
आयोगः इति
आयोगः प्लस् गच्छति. प्रण प्लस् नमति. न प्र प्लस् नमति. प्र प्लस् नमति. प्रयोगः प्लस् नमति.
प्रयोग
नमति. धन्यवाद.
बालकृष्णमहोदय अग्रिमवाक्यत्रयं पठतु. अस्ति वा? नमस्ते.
कृष्णस्य भक्ताः न प्रणश्यन्ति. प्रयोगं नश्यन्ति प्रणश्यन्ति. अर्जुनस्य मुखं परिशुष्यति. परियोगं शुष्यति परिशुष्यति.
परिशुष्यन्ति परियोगः शुष्यन्ति.
कामात् क्रोधः अभिजायते.
अभिजायते.
अभियोगं जायते. अभिजायते.
सम्यक् भवान् महोदय. अग्रिममपि पठतु. अग्रिममेकं पठतु.
आत्मा प्रसादम् अधिगच्छति. आत्मा प्रसादम् अधिगच्छति. अधियोगं गच्छति. अधिगच्छति.
अधियोगः गच्छति. अधिगच्छ. धन्यवादः. अत्र अवधेयं हेमाङ्गी भगिनी अत्र अत्र न किञ्चित् अत्र अवधेयं पठतु भगिनी हेमाङ्गी भगिनी.
नमस्ते भगिनी. अवधेयम् उपसर्गाः द्वाविंशतिः सन्ति. ते च प्र परा अप सम अनु अव निस् निर् दुस् दुर् वि आङ् 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 नि अधि अपि अति सु उत् अभि प्रति परि उप.
ये सर्वाः उपसर्गाः. सो नौ वन्स् यु नो दिस् इट् विल् बी ईजियर्. देट्स् वै ऐ थाट् प्रथममेव पठामः, अग्रे अग्रे उपरि गच्छामः. राजश्री भगिनी अग्रिमं पठतु. षष्टम इति मन्ये आत्मा अस्ति वा राजश्री भगिनी?
नमस्ते भगिनी, ऐ कुडंट हियर यू प्रॉपर्ली. कैन यू टेल मी अगेन? माय कनेक्शन इज
अनस्टेबल.
नमस्ते.
नमस्ते भगिनी. षष्टम आत्मा आरभ्य पठतु भगिनी.
आत्मा प्रसादम् अधिगच्छति, संशयात्मा विनश्यति, निगृह्णाति, उत्स्रजति, तो मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवाप्स्यति.
अष्टमं किं वद, अष्टमं वदतु भगिनि, पठतु.
भगवान् वर्षं निगृह्णाति उत्सृजति च.
निगृह्णाति उत्सृजति.
योगम्
किम् अस्ति योगम्? अवगतं वा? संशयात्मा विनश्यति. पृथक् पृथक् विभिन्नं करोतु, विभाग विभजनं करोतु तत्र.
वि योगं नश्यति, विनश्यति. उत् योगं सृजति, उत्सृजति.
उत् योगः सृजति.
Actually, my connection is not clear, so I'm not hearing it properly. I'm not sure.
Shrunotu. Kevalam shrunotu. Just listen, Bhagini. I think you are dropping a bit, word by word. So, just Kevalam shrunotu idanim.
Yeah, even I'm not able to hear you very clearly.
Okay. Shrunotu, Bhagini.
Okay.
रामेश्वरी भगिनी नवमं इतोपि पठतु भगिनि.
मनुष्यः कार्याणि
अष्टममपि पठतु.
ओके. भगवान् वर्षं निगृह्णाति उत्सृजति च. मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवाप्स्यति.
अवाप्स्यति विभागं करोतु. अवयोगः आप्योग असति.
अव आप् असति.
अवयोगः आप्योगः असति
अवाप्ति
दशमं
कर्मयोगी विशिष्यते
विशिष्यते वियोगः शिष्यते विशिष्यते एतत् सर्वं लैक् ऐ डोण्ट् नो वै दे हेव् गिवन् इट् इन् द बिगिनिङ्ग् डोण्ट् वरि टु मच् आल् द गीताश्लोकाः दे हेव् जस्ट् गिवन् जस्ट् फर् यू टु अब्सर्व् ओके डोण्ट् स्पेण्ड् टु मच् टैम् इन् इट् वि शिष्यते सो वी केन् कम् बेक् टु दिस् जस्ट् दे आर् गिविङ्ग् हौ हौ उपसर्गास् आर् यूस्ड् विशिष्यते वियोगः शिष्यते विशिष्यते सो वित् आल् द क्रियापदाः वि दे गिव् अ लिटल् बिट् डिफ्रेण्ट् मीनिङ्ग् उपसर्ग इफ् यु हेव् उपसर्ग दे विल् गिव् सेम् मीनिङ्ग् वित् लिटल् बिट् आफ् एक्सागरेशन् आर् दे विल् बि लैक् आपोजिट् रैट् गच्छति आगच्छति रैट् दे आर् आपोजिट् okay so adi adigacchati atma prasadam adigacchati so adi means it is adding like adigacchati means attaining it's like little bit of different meaning when you use adi nashyati vinashyati it is nashyati is the same meaning we when you add it is like more pronounced vinashyati so it comes by practice but sometimes the meaning little bit changes when you use upasarga that's what they are just trying to tell you agrimam subodh mayade agrimatrayam patatu
yoginah यज्ञं पर्युपासते परियोगः उपासते स्वभावः तु प्रवर्तते प्रयोगः वर्तते जगत् विपरिवर्तते वियोगः परियोगः वर्तते
सो अत्रापि पर्युपासते अस्ति खलु परि योगः उप योगः आसते असते असते योगः असते सो उपसर्गद्वयम् अस्ति तत्र परियोगः उप पर्युपासते प्रवर्तते अभवत् विपरिवर्तते तत्रापि विपरिवर्तते धन्यवादः महोदय उषा भगिनी अग्रिमत्रयं पठतु
नमस्कारः स्वभावः तु प्रवर्तते प्रयोगः वर्तते जगत् विपरिवर्तते योगः परियोगः वर्तते कार्याणि आत्मवन्तं न निबध्नन्ति नियोगः बध्नन्ति एकः प्रश्नः अस्ति भगिनि नवमवाक्ये अवाप्स्यति तत्र अवयोगः आप्स्यति वा धन्यवादः आप्स्यति आम् आम्
क्षम्यतां रामेश्वरी भगिनी ऐ थिङ्क् ऐ गाट् कन्फ्यूस्ड् वित् देट् एण्ड् या इट्स् अव आप् धातु आप् धातु भगिनि अवयोग obtain. I think it's
yeah, that kriyapada is new for me also, so I also don't know.
Like obtain, I think it's a meaning like siddhim, attain siddhi, right? Siddhim apsyati. That's what it is. Manusha karyani kurvan siddhim avapsyati. That's what apsyati, prapsyati. Something like that. Prapsyati we use, right? It's something like that.
So bhagini, is it, I just missed that, ava plus apsyati, is it? Ava?
Ha, ava bhagini, upasarga ava.
Okay.
So apsyati, ava apsyati, like savarna dirga sandhi bhavati tatra.
Astu bhagini, dhanyavad.
Bhagini, meaning ka asti, artham? अवाप्यसि अवाप्य
आङ्ग्लभाषायाम् ओब्टेन् एटेन्
अस्तु धन्यवादः
पठतु वा मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवाप्स्यति मनुष्यः कार्याणि करोति सिद्धिम् अवाप्स्यति हि ओब्टेन् सिद्धि वै वर्
धन्यवादः
साहित्य भगिनी अग्रिमत्रयं पठतु निबध्नाति अभवत् फिफ्टीन्त् या भगिनी
फिफ्टीन्त् ओके विवश्वान् विवश्वान् योगं मनवे प्राण प्राह
प्राह विवश्वान् योगं मनवे प्राह अत्र प्राह इत्युक्ते वदति इति भगिनि प्रयोगः किञ्चित् भेदः अस्ति यत् ब्रूधातुः अस्ति आह तत्र ब्रूधातु परस्मैपदी तत्र द्रष्टव्यं परन्तु अर्थः वदति इति भवति अत्र विवस्वान् योगं मनवे प्राह
ओके भगिनि
तदपि श्लोक गीताश्लोक एव अस्ति तत्र धन्यवादः भगिनि अग्रिममपि पठतु
ओके
विमूढाः
विमूढाः जीवात्मानं न अनुपश्यन्ति
विमूढाः जीवात्मानं न अनुपश्यन्ति किं भवति तत्र अनुपश्यन्ति अनुयोगः पश्यन्ति अनु अपि एक उपसर्गः एव अनुयोगः पश्यन्ति अत्र अर्थः भिन्ना एव अनुपश्यन्ति इत्युक्ते लैक् कन्सिडर् पश्यन्ति इत्युक्ते सी रैट् हियर् अनुपश्यन्ति भिन्ना अर्थ एव लैक् विमूढाः जीवात्मानं न अनुपश्यन्ति they don't consider or they don't see it it's kind of a see you can say but not in that way but
okay.
they don't recognize or something like that agrimam
visibility magini is it like visible invisible
no they like consider that way
okay
nothing to do yeah it's consider
dhanyavad
पण्डिताः साङ्ख्ययोगो योगे पृथक् न प्रवदन्ति
किमुक्तवती पुनः वदतु भगिनि वाक्यं
पण्डिताः साङ्ख्ययोगे पृथक् न प्रवदन्ति
साङ्ख्ययोगौ साङ्ख्ययोगौ पृथक् न प्रवदन्ति प्रवदन्ति किं भवति प्रयोगः वदन्ति प्रयोगः वदन्ति प्रवदन्ति
प्रवदन्ति ओके ओके भगिनि थेङ्क् यू धन्यवादः भगिनि
एक्स्क्यूस् मी भगिनि यदा भवती प्रयोगः योगः पदं वदति योगः इत्युक्ते प्लस् यू मीन् टु से अस्तु धन्यवादः
प्रयोगः प्लस् चिह्न अस्ति खलु
प्रयोगः वदन्ति लैक् देट् अनु योगः पश्यन्ति अस्तु धन्यवादः
चित्रा भगिनी अग्रिमं पठतु
नमस्ते विभुः कस्यचित् पापं न आदते आदत्ते आ योगः दत्ते
सम्यक् भगिनि धन्यवादः
धन्यवादः
एतत् सर्वं गीताश्लोकायाम् अस्ति सर्वे वाक्या तत्रापि अस्ति इति मन्ये अभवत् वा अभवत् अत्र अपि पश्यामः किञ्चित् इतोपि अधिकं पश्यामः अत्र एतत् वाक्यं पठतु भगिनि वाक्यद्वयं पठतु अत्र भगिनि चित्रा भगिनि
उच्चैः पठत जानीत च उपसर्गः धातुः क्रियापदम् उपसर्गसहितम् आ गम् गच्छति आगच्छति आ नी नयति आनयति उत् सा तिष्ठति उत्तिष्ठति अनु प्र सरति अनुसरति अनु वद् वदति अनुवदति
धन्यवादः भगिनि
धन्यवादः
इदानीं किञ्चित् किञ्चित् स्पष्टः भवति अत्र आ गम् गम् धातु दत्तमस्ति अत्र नी धातु सा धातु सृ धातु वद् धातु धा धातु अनिता भगिनी पठतु
अनु अनु धा धावति अनुधावति अनु कृ करोति अनुकरोति वि लिख लिखति विलिखति वि हृ हरति विहरति
अग्रिमम् अपर्णा भगिनि
आं भगिनि वि स्मृ स्मरति विस्मरति नि क्षिप् क्षिपति निक्षिपति प्र हृ हरति प्रहरति
धन्यवादः भगिनि अत्र पश्यतु प्र हृ हरति प्रहरति प्रहरति प्रहारं करोति खलु प्रहारम् इत्युक्ते हिट्टिङ्ग् बट् देर् वि हरति विहरति विहरति मीन्स् रोमिङ्ग् सो यु केन् सी सम् उपरसर्गात् इट् गिव्स् डिफ्रेण्ट् मीनिङ्ग्स् आल्सो सो देट् वी हेव् टु इट् कम्स् वि हेव् इन् अदर् लाङ्ग्वेजस् रैट् लैक् होप्फुलि यु केन् रिमेम्बर् फ्रोम् इफ् यु हेव् अ गुड् वोकेबुलरि वित् अदर् लाङ्ग्वेजस् दिस् शुड् नाट् बि देट् प्राब्लम् होप्फुलि everybody has that vocabulary, so it becomes easier. Otherwise you have to look at the dictionary if there are those words. So yeah, hopefully you have been seeing this while reading stories and all that, but it is just, they are just breaking it apart just to make you aware. That's the idea. So they don't have to be worried too much about it, but just to be aware. Okay. Agrimam Balakrishna Mahodaya. Prakshal Arabhya Patak.
Harati, Praharati, Prakshal, Shalayati, Prakshalayati, Pari, Pal, Palayati, Pari Palayati, Pari Prachati, Pari Prachati, Avagam Gachati, Avagachati, Avagam
Gam Dati,
Gam Dati, Namati, Avanamati,
Avanamati,
Vasati, Adhi Vasati, Upa,
Atra, Avagachati, Arthaka, Avagachati va Arthaka.
Understand?
Avagachati va. Parantu gachati binna eva kalu. Gachati means going, right? Ava, when you use ava, the meaning is totally different. That also you have to be aware. Avagachati. So when you use upasarga, sometimes it's a totally different meaning.
Mostly it's only emphasizes. Sometimes its meaning changes, no?
Yeah, sometimes it is a viruddha, right? Gachati, agachati, going, coming, right? Here, avagachati, it's a different meaning. Sometimes it just adds, enhances or pronounces that word. Sometimes.
Emphasizes,
yeah. So you have to be like little bit aware of that. If you have a good vocabulary, it will be mostly it's the same. Mostly it's the same. Dhanyavada Mahodaya. Bhumi Bhagini, Agrimam, Agrimam.
Namaskar Bhagini.
Namaskar.
Ava Nama Namati Ava Namati Adi Vasati Adi Vasati Upa Tra Karoti Upa Karoti Sama Graha Grahanati Sangrihnati. Sam ha harati samharati. Nis tru sarati nis sarati. Para bhu bhavati para bhavati. Apa kra karoti apa karoti. Abhi gya janati abhi jnanati.
Dhanyavad Bhagini.
Dhanyavad.
So here also we see a little bit different meanings, right? Karoti, apakaroti. So bhavati, parabhavati. Bhavati, parabhava ityukte like losing, right? Parajaya, something like that. Parabhava. So sarati, nissarati. Nissarati means it's losing. Sarati, it's moving, but nissarati, it's losing. Grimamapi. Okay. Atrasthya. Himangi Bhagini Patatu.
अनु शुच शोचति अनुशोचति प्र हा जहाति प्रजहाति प्रब्रू आह प्राह सो ब्रू धातु अस्ति आह आह धातु
so I don't know why they gave in the middle but just you have to just understand know the dhatu but you have to like yoga right pra yoga aha right not the middle anu yoga shoti that uh-huh. you have to remember
yeah
and these are the dhatu line, they have just given the dhatu so you have to be mindful that you are adding the upasarga yoga that kriya padam tatra
या ओके उत्सृ धातु सृजति उत्सृजति उत्योगः सृजति उत्सृजति अवलोकधातु अवयोगः लोकते अवलोकते नि युज् धातु नियोगः युङ्क्ते नियुङ्क्ते अधि इण धातु अधियोगः अधीते अत्र अत्र ब्लाङ्क् स्पेस् अस्ति किमर्थम्
तत्र अधियोगः इण् धातु अस्ति खलु इण् धातु दे इट्स् यूस् देट्स् वाट् दे हेव् गिवन् इन् द उपसर्गसहित एव प्रयुज्यते देर् इस् नथिङ्ग् विदौट् उपसर्ग देट् क्रियापद डजन्ट् एक्सिस्ट् सो इट्स् अधीते एव
मीनिङ्ग् मीनिङ्ग् कः अधीते
अधीते इत्युक्ते अधीते उपसर्ग इदानीं स्मरामि अध्ययनम् इन् धातु अस्ति अतः इन् धातु
स्टडि स्टडि अधीते
अधीते आत्मनेपदी अस्ति स्टडि अध्ययनं तदा एव इन् धातु
अस्तु धन्यवादः
जया भगिनी अग्रिमम्
नमस्कारः सर्वेभ्यः अनु वृत् धातु वर्तते अनुवर्तते उप जनी धातु जायते उपजायते वी ईक्ष धातु ईक्षते वीक्षते प्र उपसर्ग भाष धातु भाषते प्रभाषते मनु उपसर्ग सज्ज सज्ज धातु सज्जते अनुसज्जते
अत्र धन्यवादः भगिनि अत्र उपसर्ग उपसर्गाः अपि अवधेयमस्ति ओ एतत् अस्ति ब्रूधातु सर्वं दत्तमस्ति अत्र एव ब्रूधातु प्रवीति ब्रूते अहम् उक्तवती खलु एतत् एव ब्रूते वर्तमानकाले अत्र इत्यापि रूपान्तरमस्ति इन् धातु अधि उपसर्गेण सहित एव प्रयुज्यते अधीते अत्र उपसर्गसहित एव प्रयुज्यते so you don't use it without upasarga at all that's what they are saying for in that okay etat sarvam api asti atra parantu vayam upasarga eva patama kinchit etat patama
एकः प्रश्नः अस्ति भगिनि, अत्र सम नीस् आल् दीस् आर् हलन्त खलु, हलन्त. सो वैल् रैटिङ्ग् द उपसर्ग द हलन्त विल् कम् आर् इट् विल् मर्ज् वित् द फस्ट् कन्सोनण्ट्?
Yeah, sandhi bhavati bhagini. So it becomes sandhi. A sandhi, right? Like any other language. So nirgachati, right? Nirgachati, something like that. I think we have examples, but we can look it in detail. We are just introducing, right? We are, let's absorb, mm-hmm. and later it becomes simple, first when you are saying. So we'll okay. read again all these upasarga. Usha bhagini, patatu atra upasarga. Sarve upasargaan patatu atra.
Bhagini. उपसर्गाः द्वाविंशतिः सन्ति. ते च प्र, परा, अप, सम, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, प्रति, तरि, उपच.
द्वाविंशति. सो 22 उपसर्गः. सो वि कीप् यूसिङ्ग् आल् दीस्. सी समटैम्स् दे आर् लैक् टू आर् यूस्ड् हियर्. विनि वर्तते, विनिवर्तते, निवर्तते. सो लैक् समटैम्स् देर् आर् टू उपसर्गास् आर् यूस्ड्. So that also is there. This we can, I think you can do in like a homework, Anuvadite, or we can do for साहित्य किञ्चित् कुर्मः अत्र. पठतु अत्र रक्तवर्णस्य भगिनि. साहित्य भगिनी अस्ति वा, पठतु अत्र रक्तवर्णस्य.
ओके. उपसर्गस्य
वा
दृश्यते भगिनि. उपसर्गः,
उपसर्गम्, ओ तत्र पठति वा?
उपसर्गं क्रियापदं च योजयित्वा लिखत.
उदाहरणं पठतु प्रथमम्.
उपसर्गः वि क्रियापदं लिखति उपसर्गसंहितं सहितं विलिखति. ओके भगिनि. प्रा पठति
प्रापठति.
अनुगच्छति. संहरति संहरति. प्र नमति प्रणमति.
सम्यक् भगिनि, धन्यवादः.
धन्यवादः भगिनि.
चित्रा भगिनि अग्रिमं पठतु.
संतुष्यति सन्तुष्यति
सन्तुष्यति सन्तुष्यति
सन्तुष्यति सन्तुष्यति परित्यजति परित्यजति आनयति आनयति परिहरति परिहरति प्र
धन्यवादः
धन्यवादः
एक्स्क्यूज़ मी भगिनि अत्र संतुष्यति संतुष्टति भवति वदति खलु न
संतुष्यति संतुष्यति आम्
सो इन्स्टेड्
ऑफ न भवति तकार अस्ति खलु न भवति अत्र
अस्तु परन्तु उपरि संहरति अत्र स यु जॉइन द म विद द ह लाइक हाफ म प्लस ह संहरति
संहरति
अनुस्वार आगच्छति
ह दैट रूल वी हैव टू फॉलो राइट कवर्ग टवर्ग इफ इट इज नॉट देयर यू कैन जस्ट यूज द बिंदु राइट और यू कैन संहरति
ओके ओके सो संहरति ओके सो हियर अनुस्वार विल ओके
Yeah. Okay. Okay, that thing we follow because otherwise same varga you have to use for the anuswara, whatever the ta varga when you are having it. Okay?
Yeah, dhanyavad.
Okay, so you got an idea, hopefully. I just wanted to just introduce this. So hopefully we'll do this as a homework. Kinchit Bhinnavartam Kurma, Ekam Katam Api Patama. We want to finish early today. Something came up, but anyway, we'll do 15-20 minutes more. We'll read a story for now, okay? आरम्भं कुर्मः
नमस्कार अनिता भगिनी पठतु प्रथमपरिच्छेदं
महोदय जातिस्वभावः कस्मिंश्चित् वने कश्चन सिंहः पत्न्या सह वसति स्म कालान्तरे तस्य पत्नी पुत्रद्वयं प्रसूतवती सिंहः प्रतिदिनं मृगान् मारयित्वा मांसम् आनीय पत्नीपुत्रेभ्यः ददाति स्म
किञ्चित् वक्तुं शक्यते वा अवगतम्
आं महोदय कस्मिंश्चित् वने वने सप्तमी विभक्ति कश्चन सिंहः सिंह पत्न्या सह वसति स्म इस् लैक् पास्ट् टेन्स् कालान्तरे तस्य पत्नी कालान्तरे तस्य इस् लैक् षष्ठी विभक्ति पत्नी पुत्रद्वयं टू सन्स् प्रसूतवती इस् पास्ट् टेन्स् शी गेव् बर्त् टु टू सन्स् दट् इस् वाट् इट् मीन्स् सिंह
भगिनी प्रथमवाक्ये पत्न्या सह किम् अस्ति जानाति वा
पत्न्या is again
see saha and vina we have learned is with what vibhakti
saha vina saha vina is like tritiya vibhakti mahodaya
uttama
tritiya vibhakti yes so kalantare tasya patni tasya is like shashti patni putra dvayam it's like two sons. Prasutavati is like past tense. Then Simhaha Pratidinam mrugan mrugan is like a bahuvachana prathama vibhakti bahuvachana marayitva
ka vibhakti bhagini
mrugam mrugan vanam vane vanani no there is not a it is like dvitiya vibhakti bahuvachana mahodaya
आम् आं मृगः
मृगवचन बहुवचन मारयित्वा लवन्त मारयित्वा मांसम् आनीय पत्नीपुत्रेभ्यः पुत्रेभ्यः इस् लैक् चतुर्थी विभक्ति पुत्रेभ्यः
किमर्थं चतुर्थी राइट चतुर्थी किमर्थं चतुर्थी अस्ति तत्र वै इज इट इन चतुर्थी
ददाति
यदि दानम् अस्ति तत्र चतुर्थी सो पुत्रेभ्य पत्नीपुत्रेभ्यः केन् बि एनी आफ् तृतीया चतुर्थी एण्ड् ऐ मीन् चतुर्थी एण्ड् पञ्चमी
पत्नीपुत्रेभिः अपि अपि करोमि महोदय
That Vyaha will be in Bahuvachan, not Dvivachan. Patni Putre Vyaha. पुत्रेभ्यः दृश्यते वा पुत्रेभ्य लैक् रामेभ्यः चतुर्थी पञ्चमी बोत् बट् बै द कान्टेक्स्ट् वी विल् नो वाट् यु हेव् सम्यक् भवति धन्यवादः अग्रे अपर्णा भगिनी
आं महोदय
रीड् द पेराग्राफ् भगिनि किञ्चित् वाक्यत्रयं पठतु
आम् आं महोदय एकदा सिंहः मृगान् वेषणार्थं वने अटति स्म तत्र सः एकं शृगालशिशुं दृष्टवान् करुणया तं शिशुम् आनीय सः पत्न्याः हस्ते दत्तवान् Should I continue or stop?
One more sentence, okay. You read.
Sa api tam shishum marayitum na ishtavati. So he was, the lion was going on a hunt. So mrugah anveshanartham, he is going hunting, for hunting, vane atatisma, so he's roaming around hunting for a animal tatra saha ekam shrugal shishum drashtavan so he sees a baby so shrugal I think is a fox shrugalah so he sees a baby fox shrugal shishum drashtavan karunayatam shishum aniya sa patnya haste dattavan so taking pity on that little baby he takes that baby fox and gives it to the wife the female lion the lioness
atra ek prashna bhagini
amode
so dattavan asti khalu can you say that sentence in chaturthi so here patnyaha haste dattavan
patnyaha haste So instead of patnya haste, I have to use chaturthi for patni. So it would be patnya pyam. No, patnyai.
Ekavachane patnyai.
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 Like if you see Sita, it is Sitayai. Or Mati would be Mati would be Matyai. Nadi is Natyai.
Like Natyai. So Patnyai. Patnyai Dattavan, yes, also you can say. Or like they said here, what is, what did they? Patnyaha Haste
Dattavan. So Patnyai Dattavan. The Haste word will go away then. Patnyai Dattavan.
Yeah, yeah.
And she also does not wish to kill the baby fox. Sa pitam shishu mare tum na ishtavati. So we have a tuman form of marayati. The tuman form is mare tum na ishtavati. So she does not also wish to kill the baby fox.
Karunaya janati va?
Karunaya is take. I feel it's taking pity or. Being sympathetic, so it should be trutiya. It's a bhavachak shabda.
Uttamam bhagini, trutiya vibhakti.
Okay, then.
And anveshanartham.
So anveshanam, anveshanartham would be to look for mrugaha. So, it is a sandhi here. Anveshanartham. For the sake of, I think it should be hetu vachak, so trutiya again.
For khalu chaturthi.
Chaturthi.
So always when there is artham,
atanartham,
like that,
sevartham, anveshanartham. Amode chaturthi.
Uttamam bhagini, dhanyavad.
Dhanyavad mohode.
Balakrishna mohodya, agre patatu mohodya.
Namaste mohodya.
Namaste mohodya.
Ataha tam vatsyalena swaputram iva palitavati. स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे अपि ददाति स्म सा. अतः ते त्रयः अपि परस्परं भेदं न जानन्ति स्म. एवमेव ते प्रवृद्धाः.
ओके. वात्सल्येन जानाति खलु? वात्सल्येन विभक्ति जानाति वा?
वात्सल्येन द्वितीयविभक्ति.
तृतीया खलु? तृतीया. स्वपुत्राभ्यां किम् अस्ति?
स्वपुत्रं द्वितीया. स्वपुत्रं पुत्रं
अत्र ददाति अस्ति खलु? ददाति अस्ति. सो स्वपुत्राभ्यां कति पुत्राः सन्ति?
द्वे पुत्राः.
पुत्रद्वयं खलु? पुत्रद्वयम् अस्ति. सो दिस् इस् चतुर्थी द्विवचनं स्वपुत्राभ्यां. स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा. सो शृगालशिशवे अपि का विभक्ति?
शिशवे
शिशवे अपि चतुर्थी खलु शिशुः शिशवे शिशवे ददाति so something to keep in mind when there is dadati it is in chaturthi api dadati okay
so putra adhyam tatha vidyalaya shikshave api dadati sma sa ataha te trayah api parasparam भेदं न जानन्ति स्म दे ग्रू अप् वितौट् नोयिङ्ग् द डिफरेन्स् अमङ्ग् देम्सेल्व्स्
अतः ते त्रयः परस्परं भेदं न जानन्ति स्म एवमेव ते प्रवृद्धाः प्रवृद्धाः इत्युक्ते दे ग्रू अप् प्र उपसर्गः वृद्धः यूश्वलि इस् ओल्ड् बट् प्रवृद्धः दे ग्रो अप् यु केन् से इट् इस् लैक् ग्रोयिङ्ग् अप् बिकास् दे आर् शिशु सो बेसिकलि आल् आफ् देम् वर् ट्रीटेड् अलैक् वाट् एवर् हि वास् गिविङ्ग् द टू यङ्ग् लायन्स् हि वास् गिविङ्ग् द शृगाल शिशु आल्सो
Simha Shishu did not understand that it is Shrigala Shishu and the Vaisi Vasta.
Patamam Mahodaya. Dhanyavad.
Dhanyavad.
Agre Bhumi Bhagini. Vakyatrayam Kinchit Patatu Agre Parichedam.
कदाचित् ते त्रयः अपि वने अटन्ति स्म तत्र एकः गजः आगतः गजं दृष्ट्वा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ तदा शृगालपुत्रः भोः एषः गजः अस्माकं कुलस्य शत्रुः अतः तस्य पुरतः न गन्तव्यम् इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान् सो कदाचित् ते त्रयः अपि वने अटन्ति स्म सम् टैम् वन् थ्री आफ् देम् वेर् रोमिङ्ग् इन् द फोरेस्ट् So Vane is Saptami Vibhakti, Trayaha is Pullingaha in tree, then Atanti Sma is continuous past tense, Tatra, there, Ekaha Gajaha Agataha, one elephant came, Gajam Drishtva, so Gajam is Dvitiya Vibhakti Ekavachanam. Drishtva is tva form, simham putra, like drishtva means by looking the elephant, simha putra, so there are two, so it's like dvivachan, two lions, children. आक्रमणं कर्तुं सिद्धौ सो कर्तुम् इस् तुमुन् फोर्म् आक्रमणम् इस् द्वितीया विभक्ति सिद्धौ मीन्स् दे बोथ् वेर् सिद्धः सो सिद्धौ सो बोथ् द सिंहपुत्रौ दे वेर् एबल् टु अटेक् द एलिफण्ट् तदा शृगालपुत्रः सो एट् दट् टैम् शृगालपुत्र सेस् भोः एषः गजः अस्माकं कुलस्य शत्रुः सो अस्माकम् इस् कुलस्य इस् षष्ठी विभक्ति अस्माकम् इस् अवर्स् सो देट् इस् आल्सो षष्ठी विभक्ति शत्रुः So he is saying that Eshah Gajah, this elephant is our family enemy. Atah tasya puratah na gantavyam. So therefore, atah is therefore, tasya is a shashti vibhakti. Puratah means in front of, na gantavyam. So we should not go in front of him. Iti uktva tatah graham prati palayanam kratavan. Kratavan is past tense, bhutakala. Tatah, therefore, graham is dvitiya vibhakti ekvachanam. Palanayam, palayanam is also dvitiya vibhakti. Iti uktva, uktva is tva form by saying that. Yeah, so by saying that he went into the house.
Tattaha ityukte tatrataha, from there graham prati, towards his house, palayanam kritavan, he ran away.
Okay, yeah, Panchami, yes, tataha.
Kimasti. So akramanam kartum siddhau is like they were getting ready to attack. Akramanam kartum siddhau means Dvivachanam asti kalu, Simha Putrau Siddhau. So they were getting ready.
Oh, okay. I thought Siddhau means like they are able to do the Akraman. But they are getting ready
because by instinct they want to attack. So they were getting ready to attack. Then the Shrugala Putra Vadati, Eshah Gajah Asmakam Kulasya Shatruhu. Because again his instinct is like that. So, yes. Something similar.
Yes.
Dhanyavadu, Bhagini. Tamo.
Dhanyavadu.
Hemangi, Bhagini, patatu agar.
Am, Mohodaya. Tam drishtva nirutsahena siha putrau api gruham agatavantau. Anantaram tau bhrata gajam drashtva bhitya palayanam krutavan iti pitaram uktavantau.
Kinchit vadatu.
Astu. Tam drashtva. So, gajena, gajam drashtva, siha, putradvayam api gruham gatavantau anantaram gajam drishtva gajam tam drishtva shrugalam drishtva because shrugal said yeah I'm sorry shrugalam drishtva siha putrau api gruham gatavantau. Later on, Bhrata Gajam Drishtva. Okay. Later on, they both told their father that Shrugalaha was scared of Gajam, so he ran away from him, and we also did the same thing.
Samyak. So, Atra, utsahena nirutsahena means without any interest or...
Yeah, nirutsahena, yeah.
Okay. Upasarga. अग्रे अपि पठतु भगिनी.
आम्. सिंह शृगाल पुत्रं एकांते उक्तवती भोः पुत्र पुनः कदापि भवान् भवतः भ्रातृः उत्साहभङ्गं मा करोतु इति. सो द लायन् इस् वेन् शृगालः वास् अलोन् और् रादर् शृगालपुत्रम् एकान्ते उक्तवती. ओके सो वेन् द अदर् किड्स् वर् नाट् नियर् बै देट् टैम् द लायन् इस् टोल्ड् द फाक्स् देट् henceforth so henceforth nirutsa I mean what do you say I am not getting
punah kadapi bhavan punah kadapi means any next time like going forward punah kadapi bhavan bhavatah bhratroh means your brother bhavatah shashti vibhakti kalu bhavatah naam kim bhavatah bhratroho utsah bhangam means don't kill their
interest
utsah
yeah
utsah bhangam ma karotu iti ekante ityukte like she told only him when they were maybe alone hikante uktavati the following
okay
dhanyawad bhagini
dhanyawad
jaya bhagini agrima parichayam patatu
namaskar mahoday
namaskar
tada kupitah shrugalaputrah uktavan amba kim aham शौर्येण रूपेण वा ताभ्यां हीनः किमर्थं तौ माम् उपहसतः इति. सिंही मनसि एव हसित्वा तम् उक्तवती.
वदतु.
सो देन् दि आङ्ग्री आङ्ग्री fox's son said to the mother, less inferior in the rupam or parakramam.
So aham ityukte the shrugala putra is saying how am I inferior to the other two tabhyam hinam
in the yeah inferior to
tabhyam ityukte the putra dvayam
divachan divachan kimardham tau mam upahasatah why those two upahasatah looking at me and laughing
so tau ityukte tau dvivachanam ma so mam upahasatah like making fun
of me
dvitiya vibhakti kalu
yeah
patati patatah patanti
patanti hasatah okay iti timhi manasi eva hasitva. So the lioness with all her heart manasi means simhi manasi.
So simhi manasi ka vibhakti bhagini manasi uham karotu
madhyam pushta manasi
manasi ityukte in the mind kalu in the mind ityukte
saptami
आम् सप्तमी विभक्ति
मनस् शब्दं खलु
मनस् हलन्तशब्दः अस्ति मनसि एव हसित्वा तम्
उक्तवती.
सो हि वास् लाफिङ्ग् इन् अवर् मैण्ड् एण्ड् देन् सेड् द फालोविङ्ग् ओके अग्रे अग्रिमसप्ताहे पठामः. समयः जातः. विल् एन् फर् टुडे.
महोदय
आं भगिनि,
किम् अहं शौरेण रूपेण वा ताभ्यां हीनः, ताभ्याम् इति पञ्चमी वा?
आं सत्यं, फ्राम् देम् शौरेण रूपेण वा ताभ्याम् इति पञ्चमी द्विवचनं, सोरि,
या पञ्चमी द्विवचनं. सो वेन् यु आर् कम्पेरिङ्ग् वी हव् सीन् लैक् समटैम्स् इट् इस् यूस्ड्.
महोदय एकः प्रश्नः अस्ति. सो इन् द उपसर्गस् सो इस् इट् बै काण्टेक्स्ट् वी हाव् टु जस्ट् लर्न् अबौट् द मीनिङ्ग् हौ इट् इस् वाट् इट् मीन्स् आर् इस् देर् एनी प्लेस् वेर् वी केन् फैण्ड् औट् द मीनिङ्ग् फर् ईच् आफ़् द उपसर्ग लैक् विहरति प्रहरति दट् टैप् आफ़् थिङ्ग्.
You can look it up in the, it will be in the dictionary, Bhagini.
Okay. Because only for the verb we can look it up, right? Like, say if it is vilikhati, will it, I didn't see that come up like vilikhati, like that.
Let me see. But yeah, usually you can look it up in the, it should be there. Like, gachati, agachati will be there.
Yeah, okay.
And sometimes the meaning will not be too different.
Okay.
No, it doesn't matter about the context, Bhagini. Any context, usually the meaning is the same. But it comes by reading a lot, and a dictionary you should have. Most of them you should find.
Okay.
Vilikati is like, it's kind of same meaning. Mostly it is used for painting. Likati, vilikati.
Okay. Because I think that, you know, for see anusarati, like, you know, if you're following something, then we will do like anusarati, or upakaroti, apakaroti, upakaram and apakaram, like that.
Mm-hmm.
So
you have to little bit depend on your language, native language, Bhagini.
Okay, got it.
Yeah, usually it's the same. But I'm just saying, since dictionary may not have everything, or when you start reading a lot and from context, you will kind of get the meaning.
Okay.
So because, that's how we have to learn, no other way. But the meanings don't change that due to the context. It doesn't depend on context. Okay? Kshamyatam, we have to end a little early today. Sorry about that. But I wanted to just go over that and fill in those upasarga. We started doing, right? Just fill those. I think we'll send a couple of homework. And just go over the upasarga since it's, if you have looked at it first time, no? Go over that. So, little bit you will get used to it. First time you are seeing, so... chinta mastu, so it will come by practice, okay? Pratama uktva samapayama. Jaya bhagini vadatu. Pratana vadatu bhagini.
Sarve bhavantu sukhinaha, sarve santu niramayaha, sarve bhadrani pashyantu, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.